वान्तमाभो अन्धस इन्द्रमभिप्रगाजत विश्वासाहम् शतक्रतम् बंहिष्ठञ्जर्षणीनाम् पुरोहोतम् पुरुष्टदम् गाथान्या अंसनश्रुतम् इन्द्र इति प्रवेदना इन्द्र इन्नो महानाम् धाता वाजानानृतः महाम् अभिज्ञायमत अपादुषि प्रियन्धसः सुदक्षस्य प्रहोषिणः इन्दोरिन्द्रो जवा शिरः तम्बभिप्रार्चदेन्द्रम् सामस्य पेतदे तदिध्यस्य वर्धनम् अस्य पेत्वामदानान् देवो देवस्यौजसा विश्वाभिभुवना भवत ह्यमवः सत्रासाहम् विश्वासुगेर्ष्वाजतम् आच्यावजस्योतदे यद्भम् सन्दमनर्वाणम् सोमपामनवच्युतम् नरमभार्यक्रतम् शिक्षाड इन्द्रराज आपुरविद्वाङ्ग्रचेशम अवा नः पार्येधने अतश्चिदिन्द्रण उपाजा हि शतवाजया इषा सहस्रवाजया अजा बधेवतोऽधिजोर्वद्भिः शक्रगोदरे जजे एवमृत्सवज्रिवः वजमुत्पाशतक्रतो गाभो न जवसेष्वा मुक्थेषु ऋणयामसि विश्वा हि मर्त्यत्मनानुकामाशतक्रतो अगन्नवज्रन्नाशसाः वेषपुत्रशवसावृत्रन् कामकातजः नत्वामिन्द्रातिरिच्यते स नावृषान् सनिष्ठजा सङ्घोरजा अत्र वित्त्वा धिया विड्ढ्यपरन्ध्या यस्ते नूनम् शतक्रतमिन्द्रत्यम् नितमामदाः तेन नूनम् मदे मदेः यस्ते चित्रश्रवस्तमोज इन्द्रवृत्रहन्तमः य ओजोदातमामदाः विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्यसोमपाः विश्वासदस्मकृष्टिषु इन्द्राजमत्मने सुतम् परिष्टा भन्धुनागिराः अर्कमर्चन्तु कारवाः यस्मिन् विश्वा अधिश्रजोरणन्ति सप्त संसदाः इन्द्रम् सुदेह वामहे त्रिकद्रुगेषु चेतनम् देवासो जज्ञमत्तद तमिद्वर्धन्तु नागिराः आत्मा विशन्तिन्दवः समुद्रमिव सिन्धवः नत्वामिन्द्रातिरिच्यते व्यव्यक्थमहिना वृषन् भक्षम् सोमस्य जाग्रवे य इन्द्रजठरेषु ते अरन्त इन्द्रकुक्षजे सोमो भवतु वृत्रहन् अरन्धामभ्य इन्दवः अरमश्वाजगायति श्रुतकक्षो अरङ्गवे अरमिन्द्रस्य धाम्ने अरम् हिष्मा सुतेषु नः सोमेष्विन्द्रभोषसे अरन्ते शक्रदावने पराकात्ताच्चिदग्रिभस्तान्नक्षन्दनो गिराः अरङ्गमामते भजम् एवाह्यसि वीरजुरेवाशूर उदस्थिरः एवा ते राध्यम् मनाः एवा राजस्तु मेमघविश्वेभिर्धाय धातृभिः अधा चिदिन्द्रमे सजा मोषु ब्रह्मेव तन्द्रजुर्भवा वाजानाम् पदे मत्स्वा सुदस्य गोमतः मान इन्द्राभ्या आदिशस्वरो अक्तश्वाजमन् त्वाजुजापने मदद त्वजेदिन्द्रजुजापजम् प्रति ब्रुवीमहि स्पृधाः त्वमस्मागन्तवस्पसि त्वामिद्धत्वाजवो नुनोऽनुपतश्चरान् सखाय इन्द्रकारवाः